सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः, पश्चात् अस्माकं पाठं प्रति गच्छेम। भगिनी एकवारं श्लोकान् स्मारयतु।
एनाक्षरसमं नायमधिगम्य महेश्वरात् कृत्सं व्याकरणं प्रोक्तं तस्मै पाणिने नमः। येन दौता गिरिपुंसा विमलैः शब्दवारिभिः तमसश्च ज्ञानं भिन्नं तस्मै पाणिने नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। धन्यवादः।
साधु भगिनी, गते सप्ताहे अस्माकं वर्गे केचन प्रश्नाः आगताः, तेषाम् उत्तरं दातुमिच्छामि। आदौ उरण् रपरः इति सूत्रं किं वदति? रा प्रत्याहारः कः? सः प्रत्याहारः कथं निर्मीयते? उरण् रपरः इत्यस्मिन् सूत्रे रा प्रत्याहारस्य प्रसङ्गः अस्ति वा? रा प्रत्याहारस्य उपयोगः कस्मिन् सूत्रे भवति? तस्य प्रयोगः कुत्र भवति? एतेषां प्रश्नानाम् उत्तरं दातुम् इच्छामि। अस्माकं प्रवर्तमानः विषयः तु सार्वधातुकार्धधातुकयोः इति सूत्रस्य विवरणम्। सार्वधातुकार्धधातुकयोः इति एकं गुणविधायकसूत्रम्। अनेन गुणविधायकसूत्रेण सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः परः अस्ति चेत् ईगन्ताङ्गस्य गुणः भवति। एतदवगन्तुम् एकम् उदाहरणं स्वीकरोमि। सृ इति एकः धातुः अस्ति। सृधातुः भुवादिगणे अस्ति। सृधातोः लट्लकाररूपं सरति। सृ इति धातोः परं शप् इति विकरणप्रत्ययः अस्ति। किमर्थं चेत् भुवादिगणे कर्तरि शप् इति एकं सूत्रमस्ति। तेन सूत्रेण शप् इति विकरणप्रत्ययः धातु तिङ् प्रत्यययोः मध्ये उपविशति। शप् इति तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति इति कृत्वा सृयोगः शप् योगः तिप् इति स्थितिः तत्र अस्ति। सृ इति कथनेन दन्त्यसकारः ऋकारः इति मम आशयः। अन्यसृधातुः अपि अस्ति, दन्त्यसकारः रेफः उकारः, त्रयः वर्णाः सन्ति तस्मिन् धातौ। तत्र रूपं स्रवति, किन्तु कस्य प्रसङ्गे अहं वदन्ती अस्मि इत्युक्ते सृ इत्यस्य रूपं सरति। सृ इत्यस्मिन् सकारात् परं ऋकारः अस्ति, तस्य ऋकारस्य गुणः भूत्वा अर् भवति। सार्वधातुकार्धधातुकयोः इति सूत्रेण सृ सर् भवति। तत् कथं भवति? तस्मिन् प्रसङ्गे गुणस्य प्रसङ्गः अस्ति, अपि च सृ सर् कथं भवति इति तत्र विषयः। वयं माहेश्वराणि सूत्राणि पठितवन्तः खलु, चतुर्दशसूत्राणि सन्ति। तेषु सूत्रेषु पञ्चमं सूत्रमस्ति हयवरट्, षष्ठं सूत्रं लण् अस्ति। हयवरादिषु इत्युक्ते व्यञ्जनवर्णेषु, हयवर इत्यादिषु व्यञ्जनवर्णेषु यः अकारः श्रूयते सः अकारः उच्चारणार्थः, केवलम् उच्चारणार्थं तस्य उपयोगः अस्ति। हयवरादिषु अकारस्य प्रयोजनं केवलम् उच्चारणार्थः एव। किन्तु षष्ठं सूत्रं लण्, तस्मिन् सूत्रे ला इति कथनेन तत्र ला इत्यस्मिन् अकारः अपि अस्ति। सः अकारः नास्ति चेत् उच्चारणे काठिन्यं भवति, तदर्थं तत्र अकारः अस्ति। सः अकारः उच्चारणार्थः, अपि च सः अकारः सानुनासिकः इत्युक्ते सः अकारः अनुनासिक अकारः। किन्तु अन्येषु व्यञ्जनेषु यः अकारः अस्ति सः उच्चारणार्थम् एव, किन्तु अत्र यः अकारः श्रूयते सः अकारः स्वयं सानुनासिकः। सः अकारः अनुनासिकः भवति चेत् तस्य अकारस्य इत् संज्ञा उपदेशेजनुनासिक इत् इति सूत्रेण इत् संज्ञा भूत्वा तस्य लोपः इत्यनेन तस्य लोपः अपि भवति। इत्युक्ते लण् इत्यस्मिन् ला अस्ति, तत्र अकारः न केवलम् उच्चारणार्थः अनुनासिकः अपि। अनुनासिकस्य इति संज्ञा भवति चेत् तेन एकः प्रत्याहारः सिद्ध्यति, तस्य प्रत्याहारः भवति। इत्युक्ते अकारेण सह एकः प्रत्याहारः सिद्ध्यति। सः प्रत्याहारः कः? सः प्रत्याहारः एव रा प्रत्याहारः। माहेश्वराणि सूत्राणि पुनः परिशीलयामश्चेत् माहेश्वरसूत्रेषु रेफः कुत्र दृश्यते, रकारः कुत्र दृश्यते? हयवरट् इत्यस्मिन् सूत्रे हयवर तत्र रकारः श्रूयते, रेफः तत्र श्रूयते। हयवरट् इत्यस्मिन् सूत्रे यः रकारः अस्ति तस्मात् रेफात् अयं प्रत्याहारः आरभ्यते। रेफः अपि च अग्रिमे सूत्रे यः लकारः अस्ति लकारः अपि च अनुनासिक आकारः, एतत् सर्वं मिलित्वा एकः प्रत्याहारः भवति। इत्युक्ते तस्मिन् प्रत्याहारे केवलं वर्णद्वयमेव अस्ति, तस्मिन् प्रत्याहारे द्वौ वर्णौ स्तः। वर्णद्वयं किम् इत्युक्ते रेफः अपि च लकारः। रा प्रत्याहारे रेफः अपि च लकारः। अस्य रा प्रत्याहारस्य प्रयोगः कुत्र भवति, कस्मिन् सूत्रे पाणिनिना अस्य प्रत्याहारस्य प्रयोगः कृतः इति परिशीलयामश्चेत् उरण्परः इत्यस्मिन् सूत्रे रा प्रत्याहारस्य उपयोगः अस्ति। उरण्परः इति सूत्रस्य पदविच्छेदं कुर्मः चेत् अस्मिन् सूत्रे त्रीणि पदानि सन्ति, उहु अण् रपरः। उः इति कीदृशं पदम्? उः इति पदं रुवर्णस्य षष्ट्यन्तं पदम्। अण् इति प्रत्याहारः, अण् इति पदं प्रथमान्तं पदम्, अण् वर्णादेशः भवतु इति सूत्रं वदति। रपरः, रपरः इति पदमपि प्रथमान्तं, रपरः इति पदं समस्तपदं, रपरः यस्मात् सः इति बहुव्रीहिसमासयुक्तं पदम् अस्ति, तस्य विग्रहवाक्यं भवति। रा इति प्रत्याहारः इति अहम् उक्तवती। एतावता अस्य सूत्रस्य अर्थः कः इत्युक्ते, यत्र कुत्रापि ऋकारस्य स्थाने अण्वर्णादेशः भवति सः आदेशः सदा रपरः भवति। भिन्नरीत्या वदामि चेत् ऋकारस्य आदेशरूपेण यदा अण्वर्णाः आयान्ति, अण् प्रत्याहारे आयीवु इति वर्णाः सन्ति, अण् प्रत्याहारस्थवर्णः ऋकारस्य आदेशरूपेण यदा आयाति सः अण्वर्णः नित्यं रेफेण सह आयाति, तस्मात् परं नित्यं रेफः आयाति इति अर्थः अस्ति। उरण्परः इति सूत्रस्य कृते इतोपि किञ्चित् अवगन्तुं गुणसन्धेः विधायकसूत्रमपि अवगन्तव्यम्। अत्र आद्गुणः इति एकं गुणसन्धिविधायकसूत्रमस्ति, किन्तु अत्र ज्ञातव्यः अंशः कः इत्युक्ते, उरण्परः इति सूत्रेण ऋकारस्य स्थाने अण् आदेशः न भवति, ऋकारस्य स्थाने अण्वर्णादेशः उरण्परः सूत्रेण न भवति। उरण्परः सूत्रेण किं भवति? ऋकारस्य स्थाने यः अण्वर्णः आयाति सः अण्वर्णः सदा रपरः भवतु इति तत्सूत्रं वदति। किन्तु आद्गुणः इति विधिसूत्रेण गुणसंज्ञकवर्णाः आयान्ति, तत्रापि एकं संज्ञासूत्रमस्ति अदेङ्गुणः। अदेङ्गुणः इत्यस्मिन् सूत्रे अत् एङ् एङ् प्रत्याहारे एकारः ओकारः अस्ति, अत् इति कथनेन ह्रस्व अकारः, अकारः एकारः ओकारः एते त्रयः वर्णाः गुणसंज्ञकवर्णाः। देवर्षिः महर्षिः इत्यादीनि पदानि परिशीलयामश्चेत् तत्र देवयोगः ऋषिः इति कथनेन अकारः अपि च परवर्णः ऋकारः अस्ति, तत्र गुणसंज्ञकवर्णः अकारः आयाति। देवर्षिः इत्यस्मिन् पदे गुणसंज्ञकवर्णः अकारः आयाति, सः अकारः सदा रपरः भवति। अकारः अण् प्रत्याहारस्थवर्णः, न केवलं ह्रस्ववर्णः, सर्वेषां वर्णानां ग्रहणं भवतु इति अण् प्रत्याहारः वदति। इत्युक्ते न केवलं ह्रस्वकारः, अष्टादश अकाराणां प्रतिनिधिः सः आवर्णः। देवर्षिः इति पदं स्वीकुर्मः चेत् तस्मिन् देवयोगः ऋषिः इति कथनेन गुणसंज्ञकवर्णः अकारः आयाति, तस्मिन् अवसरे ऋकारस्य स्थाने यः अण् प्रत्याहारस्थवर्णः आदेशः भवति सः अण्वर्णः सदा रपरः भवति इति कृत्वा तत्र देवयोगः ऋषिः इत्यस्मिन् ऋकारस्य स्थाने आदौ आयाति, तत्पश्चात् सः अण्वर्णः अकारः रपरः भूत्वा अर् भवति। अपि च ऋकारलुकारयोः मध्ये साम्यमस्ति वा इत्युक्ते ऋकारलुकारयोः मध्ये परस्परसावर्ण्यमस्ति, ऋकारलुकारयोः मध्ये स्थानसाम्यं नास्ति किन्तु सावर्ण्यम् अन्यप्रकारकः सावर्ण्यमस्ति, तादृशसावर्ण्यमस्ति इति कारणतः उरण्रपरः इत्यस्मिन् सूत्रे रपरः इति उक्तमस्ति. रपरः इति कथनेन केवलं रकारस्य ग्रहणम् इति अर्थः नास्ति, लकारस्य ग्रहणमपि भवतु. इत्युक्ते राप्रत्याहारे रेफः अस्ति अपि च लकारः अपि अस्ति इति कारणतः यत्र कुत्रापि रु स्थाने अण् आयाति सः अण्वर्णः रपरः भवतु इति कथनेन, रपरः इति कथनेन लृकारस्य ग्रहणमपि भवति इति तत्र अर्थः अस्ति, न केवलं रेफः. कारणं किम् इत्युक्ते ऋकारलुकारयोर्मध्ये सावर्ण्यमस्ति इति कारणतः ऋकारस्य ग्रहणम् अपि च ऋकारस्य ग्रहणम् अपि भवति. रपरशब्देन रपरः लपरः च इति अर्थः. उरण्रपरः इत्यस्मिन् सूत्रे रपरः इति कथनेन राप्रत्यहारस्य ग्रहणकारणेन तत्र रपरत्वम् अपि च लपरत्वम् अपि भवतु. एतावता सारः कः, ऋकारस्य स्थाने यत्र कुत्रापि अण्प्रत्याहारस्थवर्णः आदेशः भवति चेत् सः अण्वर्णः सदा रपरः लपरः च, इत्युक्ते रप्रत्याहारे रकारः लकारः अस्ति इति कारणतः लपरः च भवतु इति सूत्रं वदति.
भगिनि
वदतु महोदय.
अत्र संशयत्रयं, ऋकारस्य ह्रस्वदीर्घप्लुतम् इति त्रयं मिलित्वा एव अष्टादश भवति, लकारस्य द्वादश एव ह्रस्व दीर्घ अभावात् तर्हि त्रिंशत् इति चेत्. अनन्तरं सप्तऋषिः सप्तऋषिः रूपद्वयमपि साधु वा? सप्तऋषिः अत्र उरण्ड्रपरः इति कारणेन सप्तऋषिः इति रूपं सिद्ध्यति, सप्तऋषिः इत्यपि रूपम् अस्ति वा, तत्र साधुत्वम् अस्ति वा?
कक्षायाः अनन्तरं विचिन्त्य वदामि महोदय.
अनन्तरम् अत्र अण् इति अस्ति किल, नकारः तु स्थानद्वये आगच्छति माहेश्वरसूत्रे, तर्हि पूर्वनकारः वा अथवा उत्तरनकारः वा स्वीकरणीयः?
अण् इति कथनेन केवलं पूर्वनकारः एव आयि उण्
परेणकारः नास्ति वा? परणकारः
नास्ति.
अनन्तरं रपरः अस्ति किल, रात् परः इति विग्रहं वक्तुं शक्नुमः वा?
रः परः यस्मात् सः
बहुव्रीहि एव.
अहं तादृशरीत्या श्रुतवती महोदय, यस्मात् सः इति बहुव्रीहिसमासयुक्तं रूपम्.
अस्तु, धन्यवादः.
गोमती भगिनी वदतु.
महाबलेश्वरभट्टमहोदयस्य सन्धिपुस्तके ऋकारः ह्रस्वदीर्घप्लुत त्रीणि अस्ति सन्ति, लकारः दीर्घः नास्ति, ह्रस्वप्लुतः स्तः.
अहं किञ्चित् विस्मृतवती, इत्युक्ते यथा महोदयेन उक्तं ऋकारलुकारयोः ग्रहणं कृत्वा आहत्य त्रिंशत् वर्णाः सन्ति इति चेत् तत्र अष्टादशप्रभेदाः ऋकारस्य कृते, लुकारस्य कृते द्वादशप्रभेदाः त्रिंशत् वर्णाः भवन्ति. साधु भगिनी, भवती सम्यक् स्मारितवती. देवर्षिः महर्षिः इत्यादीनि पदानि, तेषु पदेषु गुणसन्धिः अस्ति, तत्र उरण्रपरः इति सूत्रस्य प्रसक्तिः अपि अस्ति. लुकारस्य अवगमनार्थं तवल्कारः इति एकं पदं प्रेषितवती, तवल्कारः महल्कारः इत्यादीनि पदानि लुकारस्य कृते उदाहरणानि. सारः कः इत्युक्ते, लण् इत्यस्मिन् सूत्रे अकारः अनुनासिकः अपि च उच्चारणार्थः, तस्य इति संज्ञा भूत्वा तस्य लोपः भवति इति एकः विषयः. राप्रत्याहारे रेफः लकारः अपि अस्ति, तदवगन्तुं तवल्कारः इति उदाहरणं प्रेषितवती, अपि च गुणसन्धेः कानिचन उदाहरणानि प्रेषितवती, भवन्तः सर्वे दृष्टवन्तः इति मन्ये. अस्माकं पाठं प्रति गच्छेम. इदानीं पूर्वस्मिन् वर्गे वयं सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसङ्गे किञ्चित् अवगन्तुं प्रयत्नं कृतवन्तः. नियमद्वयस्य बलेन गुणकार्यं भवति भुवादिगणे. प्रथमनियमः तु सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः परः अस्ति चेत् ईगन्ताङ्गस्य गुणः भवति इति सार्वधातुकार्धधातुकयोः इति सूत्रं वदति. द्वितीयं सूत्रं किम्? पुगन्तस्य लघुपधस्य च अङ्गस्य इकः गुणः भवति सार्वधातुक आर्धधातुकयोः इति तत् सूत्रं वदति. तस्मिन् प्रसङ्गे अद्य किञ्चित् चिन्तनं कुर्मः. गोमती भगिनी, भवती आरम्भं करोतु. पूर्णसूत्रार्थः इत्यस्मात् आरभ्य आदौ सूत्रं पठित्वा सूत्रं किं वदति पुनः एकवारं स्मारयतु. केषुचित् स्थलेषु उपधायाम् एकवर्णः नास्ति इति कारणतः गुणः न भवति इति वयं पठितवन्तः. पुगन्तलघुपथस्य च इति सूत्रम् अत्र आरभ्यते. पुनः एकवारं करपत्रम् इदानीं पश्यन्तु. पूर्णसूत्रार्थः इति लिखितमस्ति अस्मिन् करपत्रे. तस्मात् परं पुगन्तलघुपथस्य च इत्यस्मात् आरभ्य अद्य पठनीयम्.
पूर्णसूत्रार्थः पुगन्तलघुपथस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. उप् अन्ते यस्य तत् पुगन्तं, लघ्वी उपधा यस्य तत् लघुपथम्. पुगन्तश्च लघुपदश्च तयोः पुगन्तलघुपथं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य. पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रम् विदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्थधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थाने भवति यत्र स्थाने नोक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघुपथस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्थधातुकयोः. भगिनी अत्र पुगन्तश्च इति सूत्रं दत्तमस्ति, तस्य विवरणं दत्तमस्ति. पुगन्तलघुपथस्य एकं पदं च द्वितीयं पदं द्विपदम् इदं सूत्रम्. सूत्रं वदति पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. पुगन्तमस्ति चेत् लघु उपधा अस्ति चेत् अङ्गस्य लघु उपधा अस्ति चेत् अङ्गस्य पुगन्तम् अस्ति चेत् गुणः भवति यत्र सार्वधातुकः आर्धधातुकप्रत्ययः परे अस्ति. सार्वधातुक आर्धधातुकयोः गुणः भवति इति वयं जानीमः. पूर्वम् अस्माभिः पठितं सार्वधातुक आर्धधातुकयोः इगन्तङ्गस्य गुणः भवति. अत्र उपधा अङ्गस्य उपधायाः उपधायां यत्र इक् वर्णः अस्ति तत्र गुणः भवति इति विधेर्गुणः इति सूत्रेण अनुवृत्तिसहितसूत्रं पुगन्तलघुपथस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः इति अनुवृत्तिसहितसूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इति अनुवृत्तिः भवति सार्वधातुकार्धधातुकयोः इति पूर्ण अनुवृत्तिः. अनन्तरम् अङ्गस्य अधिकारे एकं सूत्रमस्ति, अङ्गकार्यं भवति अत्र. इको गुणवृद्धि का इति वदति, इकः भवति गुणवृद्धिः. परिभाषासूत्रेण इकः स्थानी भवति, तत्र स्थानी न उक्तं तु गुणः भवति, गुणः तु इकः एव भवति, तु इकः गुणः भवति. पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्थधातुकयोः इति सूत्रं वदति. च अव्ययमस्ति
अस्मिन् परिच्छेदे. किं लिखितमस्ति? प्रथमं वाक्यं सूत्रार्थः, तत्पश्चात् लघुपदं नाम किम् इति लिखितमस्ति. पुक् अन्ते यस्य तत् पुगन्तम् इति विग्रहवाक्यं दत्तमस्ति. बहुव्रीहिसमासयुक्तं पदं पुगन्तम् इति. लघ्वी उपधा यस्य तत् लघुपदं, विषयद्वयमस्ति. पुगन्तम् अङ्गमस्ति चेत् अथवा लघुपदम् अङ्गमस्ति चेत् अङ्गस्य इकः गुणः भवति सार्वधातुकार्धधातुकप्रत्ययोः परयोः. अस्मिन् सूत्रे सार्वधातुकार्धधातुकयोः इति सूत्रस्य सम्पूर्णानुवृत्तिः अस्ति इति एकः विषयः. गते सप्ताहे अहं लघुपदं नाम किम् इति किञ्चित् उक्तवती. लघ्वी उपधा, विग्रहवाक्यं लघ्वी उपधा. उपधा कीदृशी लघ्वी इति तत्र कर्मधारे समासः अस्ति. कर्मधारे समासस्य प्रसङ्गे समानाधिकरण्यं समानविभक्तिकत्वं वर्तते. तथा वदनेन लघुपधा इति रूपं सिद्ध्यति. किन्तु अस्मिन् सूत्रे पदमस्ति लघुपदम् इत्युक्ते लघुपदं नपुंसकलिङ्गपदं. लघुपदम् इति अङ्गस्य विशेषणं भवति. अङ्गम्, अङ्गम् इत्युक्ते प्रत्ययात् पूर्वं यः भागः अस्ति सः भागः, तस्य प्रत्ययस्य कृते अङ्गं भवति. बुद्धधातोः प्रसङ्गे वयं दृष्टवन्तः बुद्धधातौ लघुपदम् अङ्गमस्ति. किन्तु अत्र लघुपदम् इति कथनेन अङ्गस्य विशेषणं भवति इति कृत्वा तस्मिन् पदे बहुव्रीहिसमासः अस्ति. साधारणतया बहुव्रीहिसमासः अन्यपदस्य विशेषणं भवति. तदर्थमेव अन्यपदार्थप्रधानः बहुव्रीहिः. लघुपदम् इति कथनेन अत्र लघु इति पदस्य प्राधान्यं नास्ति, उपधा इति पदस्य प्राधान्यमपि नास्ति. कस्य प्रधानता अस्ति इत्युक्ते अङ्गम् इत्यस्य प्राधान्यमस्ति. अङ्गं कीदृशम्? अङ्गं लघुपदम्. तत्र अन्यपदार्थप्राधान्यं वर्तते बहुव्रीहिसमासे. तदर्थमेव अस्मिन् सूत्रे पुगन्तम् इति पदं यत् लिखितमस्ति अथवा लघुपदम् इति यत् लिखितमस्ति, विशेषतया लघुपदम् इत्यस्मिन् पदे लघुपदम् अङ्गम् इति अर्थः. अङ्गस्य विशेषणम् एव लघुपदम्. बहुव्रीहिसमासयुक्तं पदम् इदं विग्रहवाक्यम् एवं रीत्या लिखितमस्ति. विमला भगिनी भवती पठतु. ध्येयं यत्,
ध्येयं यत् सार्वधातुकार्धधातुकयोः इति सूत्रस्य सप्तमाध्यायस्य तृतीयपादे सप्ततिसूत्रम् इति सूत्रस्य अनुवृत्तिसहितसूत्रम् एवम्. इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः. अत्र इकः अङ्गस्य गुणः इत्यस्य वदनेन अङ्गस्य अन्ते यः इक् वर्णः तस्य गुणः इति अर्थः. तत्र येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्. अलोन्त्यस्य इत्यनेन प्रथमाध्याये प्रथमपादस्य द्विपञ्चाशत् सूत्रम्. अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. किन्तु पुगन्तलघुपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्. इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्. एतदर्थं येन विधिस्तदन्तस्य अलोन्त्यस्य इत्यनयोः प्रसक्तिः नास्ति. अपि च अनुवृत्तिसहितसूत्रे अङ्गस्य इकः गुणः इति अस्ति, न तु इकः अङ्गस्य गुणः. पुगन्तलघुपदस्य च इति सूत्रे अङ्गस्य इकः अनयोः पदयोः समानाधिकरणं न इष्टम्. अत्र विवरणं दत्तं यत् सार्वधातुक आर्धधातुकयोः इत्यपि पुगन्तलघुपदस्य अनयोः द्वयोः मध्ये किं भेदमस्ति इति मन्ये भगिनी. सार्वधातुक आर्धधातुक अत्र इकः अङ्गस्य गुणः इति यदस्ति तत् केवलं पूर्णस्य अङ्गस्य न, परन्तु यत् अङ्गमस्ति यत् अङ्गस्य अन्तिमवर्णस्य इति. अपि च अलोन्त्यस्य इति सूत्रेण केवलम् अन्तिम अल् ग्रहणीयम् अङ्गस् इति न तु पूर्ण अङ्गस्य इति तस्य अर्थं पुगन्तलघूपदस्य च इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम् इत्युक्ते अङ्गस्य इगन्तस्य न उपधायां यत् ह्रस्व इक् वर्णः अस्ति तस्य केवलं तस्य ग्रहणमिति तेन विधिस्तदन्तस्य अपि च अदौन्त्यस्य द्वयोः सूत्रौ केवलम् अन्तिमवर्णस्य प्रसक्तेः कारणमस्ति न तु इगन्तस्य न तु पुगन् लघु न तु उपधायांश्चितस्य वर्णस्य तेन इति अत्र दत्तं भगिनि एवं मम अवगमनम्
तदेव इत्युक्ते अत्र सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघूपधस्य च इति सूत्रद्वयं परिशीलयामश्चेत् अनयोः सूत्रयोः अनुवृत्तिसहितसूत्रं भिन्नम् अस्ति अनयोः सूत्रयोः अनुवृत्तिसहितसूत्रं पुनः एकवारं पश्यन्तु पुगन्तलघूपधस्य च इति सूत्रस्य अनुवृत्तिः अपि च सार्वधातुकार्धधातुकयोः इति सूत्रयोः अनुवृत्तयः भिन्नाः किमर्थं तथा अस्ति इति एकवारं परिशीलनीयं तदेव अत्र लिखितमस्ति अस्मिन् परिच्छेदे सार्वधातुकार्धधातुकयोः इत्यस्मिन् सूत्रे येन विधिस्तदन्तस्य अपि च अलोन्त्यस्य इत्यनयोः परिभाषासूत्रयोः प्रसक्तिः अस्ति इत्युक्ते इगन्ताङ्गस्य गुणः भवति सार्वधातुकार्धधातुकप्रत्ययोः परयोः इकः अङ्गस्य तत्र इकः इति पदम् इको गुणवृद्धिः इत्यस्मात् आगतं कस्य गुणः भवति इत्युक्ते अन्तिम अल्वर्णस्य गुणः भवति सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसङ्गे त्रीणि परिभाषासूत्राणि वयं पठितवन्तः येन विधिस्तदन्तस्य अलोन्त्यस्य इको गुणवृद्धिः अत्र पुगन्तलघूपधस्य च इत्यस्मिन् सूत्रे येन विधिस्तदन्तस्य अलोन्त्यस्य अनयोः प्रसक्तिः नास्ति किमर्थं नास्ति इत्युक्ते सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र कार्यम् अङ्गस्य अन्ते भवति सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यम् अङ्गस्य अन्ते भवति तदर्थं तत्र अलोन्त्यस्य इत्यस्य आवश्यकता अस्ति किन्तु पुगन्तलघूपधस्य च इति सूत्रेण अत्र अङ्गस्य अन्ते कार्यं नास्ति धातोः उपधायां यः लघु इक् वर्णः अस्ति तस्य लघूपधस्य अङ्गस्य इत्युक्ते उपधायां यः लघु इक् वर्णः अस्ति तस्य गुणः भवतु इति पुगन्तलघूपधस्य च वदति इति कृत्वा अनुवृत्तिसूत्रयोः मध्ये भेदः अस्ति सारांशः तु पुगन्तलघूपधस्य च इत्यस्मिन् सूत्रे येन विधिस्तदन्तस्य अपि च अलोन्त्यस्य अनयोः सूत्रयोः प्रसक्तिः नास्ति तयोः आवश्यकता अपि नास्ति तयोः कार्यं नास्ति शोभा भगिनी भवती पठतु
अग्रे पुगन्तस्य इत्यस्य सूत्रसहितं रूपं पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः अनेन केषाञ्चित् विशिष्टधातूनाम् अङ्गस्य उपधायां यः इक् वर्णः सः लघुः नास्ति चेदपि गुणादेशः भवति अर्ति ह्री व्ली री ग्नु इक्ष्मा यातां पुग्णौ इति सूत्रेण ऋकारः ह्री व्ली री ग्नु इक्ष्मायि इत्येषां धातूनाम् आकारान्तधातूनां च पुक् आगमः भवति निच् प्रत्यये परे यथा दा धातुः लटि ददाति निचि दापयति दा योगः निच् अनुबन्धलोपे दा योगः इ पुगागमः तदनन्तरं पुगागमः दा योगः पकारः योगः इ दापि इति निजन्तधातुः दापि योगः शप् योगः ति दापयति एतादृशीषु स्थितिषु धातु निच् प्रत्यययोः मध्ये पुक् आगमः इत्युक्ते पुगागमः भवति यथा दापि इति धातौ दाप् इति धातोः पुगन्तम् अङ्गम् इति उच्यते. पुक् अन्ते यस्य तत् पुगन्तम् इति. अस्तु, तत्र पुगन्तस्य इत्यस्य सूत्रसहितं रूपम् इति. तत्र पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः. पुगन्तस्य तत्र अङ्गे पुक् यस्य अन्ते अस्ति तत् तादृशः अङ्गस्य इक् प्रत्याहारस्थवर्णानां गुणः भवति. परे सार्वधातुक अथवा अर्धधातुक प्रत्ययौ स्तः चेत् अनेन. किन्तु एतादृश एतत् नियमं कुत्र न अन्वयति इत्युक्ते केषाञ्चित् विशिष्टधातवः सन्ति, केचन विशिष्टधातवः सन्ति. ते के इत्युक्ते तत्र ऋकारः ह्रि व्लि रि ऋकारः न क्षमतां ऋ ह्रि व्लि रि क्नुयि क्ष्मायि इति धातवः सन्ति. तत्र अङ्गे उपधायाम् इक् लघु नास्ति चेदपि गुणादेशः भवति. तत्र विशिष्टसूत्रम् अस्ति इति कृत्वा पुगन्तस्य लघुपदस्य इत्यस्य सूत्रनियमं तत्र कार्यं न करोति. ते धातवः लघु उपधा नास्ति चेदपि अन्यत् अंशः अस्ति, दीर्घ आकार अस्ति चेत् अपि उपधायां न क्षम्यताम् आकारान्त दीर्घ आकारान्त धातूनां क्षम्यताम्. तत्र पुक् आगमः भवति यदा णिच् प्रत्ययः परम् अस्ति. यथा तत्र एकम् उदाहरणं दत्तं, दा इति धातुः लट् लकारे ददाति इति भवति, किन्तु णिच् इति प्रत्ययस्य योजनेन दापयति इति भवति. तद् कथं भवति इत्युक्ते दा इति धातुः स्वीकृत्य णिच् परं यदा आगच्छति तत्र णिच् इत्यस्य अनुबन्धलोपेन णकारः अपगच्छति, चकारः अपि हलन्त्यम् इत्यनेन अपगच्छति. तदा दा योगः इ इति एव तिष्ठति. तत्र पुगागमः भवति. अतः दा योगः पकारः योगः इ. अधुना वर्णमेलनेन दापि इति निजन्तधातुः भवति. एतस्य नाम निजन्तधातुः इति भवति. तत्र दापि इति भूत्वा अधुना दापि योगः शप् योजनेन णिच् परे शप् आयाति. शप् योजनेन अपि च तिङन्त तिङन्त इति प्रत्ययः ति योजनेन दापयति. तत्र शप् इत्यस्य पुनः अनुबन्धानां निष्कासनानन्तरम् आ एव तिष्ठति. अतः दापि योगः आ योगः ति. तत्र अन्यानि कार्याणि अपि सन्ति किन्तु दापयति इति अन्तिमरूपं निष्पन्नः भवति. अपि च एतादृशीषु स्थितिषु धातु णिच् प्रत्ययोः मध्ये पुक् आगमः भवति. यदा प्रक्रिया एतादृशः भवति तत्र पुक् इति एकः आगमः भवति. यथा दाप् इत्यस्य धातोः पुगन्तम् अङ्गम् इति उच्यते. पुक् अन्ते यस्य तत् पुगन्तम्. अस्तु, तत्र तावदेव अस्ति किल भगिनि. धातु णिच् प्रत्ययोः मध्ये पुक् आगमः.
भवती सम्यक् उक्तवती भगिनी. भवती यदुक्तवती तदेव भिन्नरीत्या वक्तुं प्रयत्नं करोमि. अस्माकं सूत्रमस्ति पुगन्तलघूपधस्य च. तस्मिन् सूत्रे भागद्वयमस्ति, पुगन्तमङ्गम् अपि च लघूपधमङ्गम्. बुद्धधातोः उदाहरणं स्वीकृत्य बोधति इति रूपं वयं परिशीलितवन्तः. तत्र बुद्धधातुतः बुद्ध बोध् कथं भवति इत्युक्ते तत्र लघूपधमङ्गम् अस्ति, उपधायां लघु इक् वर्णः अस्ति, सार्वधातुकप्रत्ययः परः अस्ति इति कृत्वा गुणः भवति. पुगन्तस्य प्रसङ्गे वयं न चर्चितवन्तः. अस्मिन् परिच्छेदे पुगन्तं नाम किं, पुगन्तस्य विवरणं किञ्चित् अत्र दत्तमस्ति. पुगन्तम् अङ्गम् अस्ति चेत् सार्वधातुक अर्धधातुकप्रत्ययोः परयोः अपि गुणः भवति. इदम् अङ्गं पुगन्तमेव, किन्तु अस्मिन् अङ्गे उपधायाम् इक् वर्णः नास्ति, उपधायां ह्रस्व इक् वर्णः नास्ति, उपधायां दीर्घ इक् वर्णः अस्ति. अस्ति चेदपि पुगन्तम् अङ्गम् अस्ति इति कृत्वा गुणः भवति इति तत्राशयः. पुगन्तम् अङ्गं नाम किम् इति ज्ञातव्यम्. विग्रहवाक्यं पुक् अन्ते यस्य तत् अङ्गम् इत्यस्य विशेषणं. पुगन्तम् अङ्गं कुत्र सिद्ध्यति इति परिशीलनीयम्. यदा कदापि प्रेरणार्थे णिच् इति प्रत्ययं योजयामः, णिच् प्रत्ययः सनादिप्रत्ययः, इत्युक्ते सनादिप्रत्ययेषु अन्यतमः णिच् प्रत्ययः. णिच् प्रत्ययः प्रेरणार्थे विधीयते. पुगन्तम् अङ्गम् इति अवगन्तुं विशिष्टं सूत्रं ज्ञातव्यं. तत् विशिष्टं सूत्रं किम् इत्युक्ते अर्ति ह्रीव्ली रीक् नु ईक्ष्मायातां पुङ्णौ इति सूत्रम्. णिशब्दस्य सप्तम्यन्तं रूपं णौ अस्ति. णौ इत्युक्ते णिचि परे इति अर्थः. तत्र पुक् आगमः भवति कदा? णिच् प्रत्यये परे. केषां धातूनां प्रसङ्गे अस्य प्रसक्तिः अस्ति इत्युक्ते अत्र केचन धातवः दत्ताः अस्मिन् सूत्रे, अपि च आकारान्तधातूनां प्रसङ्गे अपि अनेन सूत्रेण पुक् आगमः भवति अर्ति इति कथनेन. तत्र रु धातोः प्रसङ्गः, ह्रि इति अन्यः, व्लि अन्यः धातुः, रि अन्यधातुः, आताम् इति कथनेन षष्टिविभक्ति बहुवचनरूपम् आताम्, आत् इति कथनेन तपरस्तत्कालस्य इति सूत्रेण दीर्घ आकारः, आताम् इति कथनेन दीर्घ आकारान्तधातूनां प्रसङ्गे णिच् प्रत्यये परे पुकागमः भवति इति तत्र सूत्रार्थः. दा धातोः उदाहरणं दत्तमस्ति. दा इति धातुः दीर्घ आकारान्तधातुः. अन्ये धातवः अपि सन्ति दीर्घ आकारान्तधातवः. धा अस्ति, दा दापयति, धा धापयति, मा मापयति, स्था स्थापयति, दा मा स्था, एते धातवः दीर्घ आकारान्तधातवः. साधारणलट्लकाररूपं ददाति, णिच्युक्तं रूपं दापयति, मा अस्ति चेत् मापयति, स्था अस्ति चेत् स्थापयति. दा धातुः अस्ति, आदौ प्रेरणार्थक णिच् विधीयते, तेन दायोगः णिच्, चकारः हलन्त्यम् इत्यनेन अपगच्छति, णकारः चुटु सूत्रेण अपगच्छति, तेन ई शिष्यते. तत्र दायोगः ई इति स्थितिः अस्ति. इदानीम् अर्ति ह्रीव्लि इति सूत्रेण पुक् आगमः भवति. दायोगः पुक् योगः ई इति स्थितिः अस्ति. पुक् इत्यस्मिन् ककारः इतिसंज्ञकवर्णः, उकारः अपि इतिसंज्ञकवर्णः, तत्र पकारः अवशिष्यते. पुक् कित् अस्ति. कित् इत्युक्ते ककारः इतिसंज्ञकवर्णः. तत्र आद्यन्तौ टकितौ इति सूत्रेण सः ककारः अङ्गस्य अन्ते आयाति. आद्यन्तौ टकितौ इति सूत्रं किं वदति इत्युक्ते तित् आगमः अस्ति चेत् आदौ आयाति, कित् कित् आगमः अस्ति चेत् अङ्गस्य अन्ते आयाति इति सूत्रं वदति. आद्यन्तौ टकितौ इति सूत्रेण पुक् आगमः अङ्गस्य अन्ते. दा इति धातुः अस्ति, धातुः अपि च अङ्गं, तस्य अन्ते पुक् आगमः भवति इति कृत्वा दाप् दाप् इति रूपं सिद्ध्यति. तत्र दाप् इति पुगन्तम् अङ्गं. तत्पश्चात् दाप् योगः ई णिच् इत्यस्मात् आगतः, तेन तत्र दापि वर्णमेलनेन दायोगः पकारः योगः ई दापि. दापि इति णिजन्तधातुः अथवा आतिदेशिकधातुः अथवा नूतनधातुः अथवा अस्माभिः निर्मितः धातुः. अयं धातुः औपदेशिकः नास्ति, णिच् प्रत्ययेन साधितः अयं धातुः. दापि णिजन्तधातुः. तत्पश्चात् दापि योगः शप् योगः ति दापयति. अत्र दापि अपि च शप् अस्ति. शप् इत्यस्मात् अनुबन्धलोपे सति अकारः तिष्ठति. शप् प्रत्ययः सार्वधातुकप्रत्ययः इति कृत्वा दापि तत्र इकारस्य गुणः भूत्वा दापे भवति. दापे योगः आ तत्र एचोयवायावः इति सूत्रेण अयादेशः भूत्वा दाप् योगः ऐ योगः आ तत्र दापय इति अङ्गं सिद्ध्यति. अन्ते ति योजयामः, तेन दापयति इति रूपं सिद्ध्यति. किन्तु अत्र विषयः कः एतावता इत्युक्ते पुगन्तम् अङ्गम् अस्ति, दाप् इति पुगन्तम् अङ्गं, दाप् इत्यस्मिन् पकारः अन्ते अस्ति इति कृत्वा दाप् इति पुगन्तम् अङ्गम् अस्ति. दापि इति नूतनधातुः. एतादृशेषु स्थलेषु पुगन्तम् अङ्गम् इत्यस्य प्रसङ्गः अस्ति. एतादृशेषु स्थितिषु धातुर्णिच् प्रत्ययोः मध्ये पुक् आगमः भवति. दाप् इति धातोः पुगन्तम् अङ्गम्, पुगन्तम् अङ्गम् इति अत्र सिद्ध्यति. अत्र केचन धातवः दत्ताः, अपि च आकारान्तानां प्रसङ्गे अपि णिच् प्रत्यये परे पुगागमः भवति इति अर्ति ह्रीव्लि सूत्रं वदति. अग्रिमे परिच्छेदे किमस्ति इति एकवारं परिशीलयामः. पमेला भगिनी भवती करोतु.
प्रश्नः अस्ति भगिनि,
वदतु.
पुग्णौ इति मया न अवगतं, तत् शब्दं कथम् उत्पन्न, किमस्ति पुल्लिङ्गे अस्ति पुग्णौ, द्विवचनम् अस्ति, किमस्ति?
तत्र सन्धिकार्यं भवति. पुक् आगमः इति तत्र अर्थः अस्ति. पुक् इति एकं पदमस्ति. अणौ, अणौ इति पदं णि शब्दस्य सप्तम्यन्तं रूपं. पदविच्छेदं कुर्मः चेत् णि, णि इत्युक्ते णिच् प्रत्यये परे इति तत्र अर्थः अस्ति. वयं साधारणतया शृणुमः, अहम् अत्र तिष्ठामि, अहं तत्र पुस्तकं स्थापयामि इति वदामश्चेत् तत्र स्थाधातुः अस्ति. स्थाधातुः आकारान्तधातुः, तत्र णिच् प्रत्ययं योजनेन स्थापयति इति रूपं सिद्ध्यति. स्थाधातोः प्रसङ्गे तिष्ठ आदेशः भवति इति अन्या वार्ता. किन्तु स्थापयति इत्यस्मिन् पदे पकारः कुतः आगतः इति प्रश्नः उदेति. सः पकारः अथवा दापयति अथवा धापयति अथवा मापयति इत्यादिषु पदेषु सः पुक् आगमः कथं भवति, केन सूत्रेण भवति इत्युक्ते अनेन सूत्रेण पुक् आगमः भवति णिच् प्रत्यये परे. अग्रे पठतु.
तर्हि णिच् प्रत्यये परे आकारान्तधातूनां पुगागमः भवति यदा दायो दा दाप् दापि दापयति, परन्तु तत्र पुगन्तस्य उपधायाम् अकारः दाप्, अतः गुणकार्यस्य प्रसङ्गः एव नास्ति. किन्तु अन्ये धातव अपि सूत्रे सूचिताः सन्ति, येषां पुगन्तस्य उपधायाम् इक् स्वरः अस्ति, यथा रु, ह्री, व्लि, द्वि, येषां पुगन्तम् अङ्गम् रप्, हिप्, लिप्, रिप्. अत्र यद्यपि उपधायां ह्रस्व इक वर्णः लघु उपधा नास्ति, अपि तु दीर्घ इक वर्ण, तथापि पुगन्त लघु उपधस्य च इत्यनेन पुगन्तस्य दीर्घ इकः गुण आदेश भवति. रप् इत्यस्य अर्प भवति, हिप् इत्यस्य हेप भवति, लिप् इत्यस्य व्लेप, रिप् इत्यस्य रेप.
उच्चारणं सम्यक् भवेत्. ह्रीप्, व्लीप्, रीप्, तत्र दीर्घवर्णः अस्ति इत्युक्ते रीप्. पुनः धातून् पश्यतु, ह्री, व्ली, री इत्युक्ते एतेषु धातुषु दीर्घवर्णः अस्ति, किन्तु उपधायां ह्रस्वीकवर्णः नास्ति. वदतु,
पुनरेकवारं वदामि. रूप् अर्प, ह्रीप् ह्रेप, व्लीप् लेप, रीप् रेप. तर्हि यदा भगिन्या पूर्वमेव उक्तं दाप् इति कथं दाप् आयाति निच् योजनेन, तर्हि अकारान्तधातूनां पुगागमः भवति इति भगिन्या सम्यक्तया उक्तं पूर्वं. तत्र पुगन्तलघुपतयस्य च उपधायाम् अकार दाप् इत्यत्र लघु उपधा नास्ति दाप् इत्यत्र, अतः गुणकार्यस्य प्रसङ्गे एव नास्ति तत्र. किन्तु अन्यधातवः अपि अस्ति येषां इक वर्ण भवति, इक अपि लघु इक् अपि च दीर्घ इक् वर्ण भवति, तत्र किं भवति इति उक्तमस्ति. यत् अकारान्तधातूनां यत्र पुगागम अस्ति तत्र न तु केवलम् इकवर्णस्य किन्तु दीर्घ इकवर्ण उपादाय अस्ति चेत् अपि तत्र गुणः भवति इति तत्र उक्तमस्ति. तर्हि तत्र उदाहरणम् अस्ति श्रीप् व्लीप् रीप् इत्यत्र उपादायां दीर्घ इकार अस्ति तत्र गुण भूत्वा श्रेप् व्लेप् रेप् इति भवति इति दत्तम्.
तदेव पूर्वस्मिन् परिच्छेदे पुगन्तम् अङ्गं नाम किम्, पुगन्तम् अङ्गं कुत्र सिध्यति, केन सूत्रेण सिध्यति इति दत्तमस्ति. किन्तु अस्मिन् परिच्छेदे किं लिखितमस्ति, पुनः तदेव उदाहरणं दत्तमस्ति, दा धातुतः निच् प्रत्ययस्य योजनेन दापि इति रूपं सिध्यति, तत्र पुगन्तम् अङ्गम् अस्ति. अत्र आकारान्तधातूनां पुगागमः भवति निच् प्रत्यये परे इति लिखितमस्ति. आताम् इति सूत्रे उक्तमस्ति, अहं पूर्वमपि उक्तवती तपरस्तत्कालस्य इति सूत्रेण तस्य कालस्य इङ्गितं भवति इत्युक्ते केवलं दीर्घ आकारान्तधातूनां प्रसक्तिः अत्र अस्ति. दाप् इति पुगन्तम् अङ्गम् अस्ति, दाप् इति कथनेन पकारात् पूर्वम् उपधायां दीर्घ आकारः अस्ति, न तु ह्रस्व इक्वर्णः तत्र नास्ति. दाप् इत्यस्मिन् उपधायां दीर्घ आकारः अस्ति. उपधायां दीर्घ आकारः अस्ति चेत् गुणः भवति वा? न भवति खलु. पुगन्तलघुपधस्य च इति सूत्रेण तत्र उपधायां लघु इक्वर्णः अस्ति चेदेव गुणः भवति, सार्वधातुकार्धधातुकप्रत्ययः परः अस्ति चेत् इति सूत्रं वदति. किन्तु अत्र उपधायां लघु इक्वर्णः नास्ति. धातूनां रूपाणि पश्यन्तु, ह्री व्ली रि इति धातवः सन्ति, इत्युक्ते एतेषु धातुषु अन्ते इगन्तम् अङ्गमस्ति, इत्युक्ते अन्ते दीर्घ ईकारः अस्ति. किन्तु एतेषु धातुषु निच्प्रत्ययस्य योजनेन पुगन्तम् अङ्गं सिध्यति, तत्र विशिष्टसूत्रेण एतेषु धातुषु पुगन्त अङ्गं निर्मितं. ह्रीप् इति कथनेन तत् पुगन्तम् अङ्गम् अस्ति, इत्युक्ते पुगन्तम् अङ्गम् अस्ति इति कृत्वा पुगन्तलघुपथस्य च इति सूत्रेण अत्र गुणादेशः भवति इति कृत्वा ह्रीप् ह्रेप् भवति. विषयः कः इत्युक्ते उपधायां ह्रस्वैकवर्णः नास्ति चेदपि पुगन्तलघुपथस्य च इति सूत्रेण एतेषु धातुषु गुणकार्यं भवति, दीर्घ ईकवर्णस्य गुणादेशः भवति. ह्रीप् इत्यस्मिन् पकारात् पूर्वं दीर्घ ईकारः अस्ति, ह्रस्ववर्णः नास्ति, किन्तु पुगन्तम् अङ्गम् इदं पुगन्तम् अङ्गम् अस्ति इति कारणतः तत्र गुणः भूत्वा ह्रीप् ह्रेप् भवति. ईकारस्य गुणवर्णः एकारः, अतः ह्रेप्. व्लीप् व्लेप् रीप् रेप् भवति. भगिनी भवती एव पठतु अग्रिमं वाक्यमपि.
प्रश्नः अस्ति भगिनि, क्षम्यतां,
वदतु.
अत्र अर्ति ह्रीव्ली इत्यस्मिन् सूत्रे ऋकारस्य अर्ति कथं भवति, किमर्थम् अर्ति इति दत्तं, ऋ ह्रि अर्ति ह्रि इति दत्तं?
तत्रापि कारणम् अस्ति, इत्युक्ते धातूनां निर्देशनं तादृशरीत्या कृतम् अस्ति, धातोः निर्देशनं तथा भवति.
धन्यवादः.
इक् स्तिपौ धातुनिर्देशे इति एकं वार्तिकमस्ति, धातूनां निर्देशः सूत्रेषु एवं रीत्या कृतमस्ति. रुधातोः निर्देशः अर्ति इति रूपेण सूत्रे लिखितमस्ति, इत्युक्ते छन्दसः कारणात् एवं रीत्या लेखनीयं. भगिनी पठतु.
आं भगिनि, लट् लकारे रोप् अर्प् भवति, अर्पि अर्पयति, हीप् ह्रेप् हेप् भूत्वा हेपि भवति, ह्रेपयति इति अन्ते भवति, व्लीप् व्लेप् लेप् अपि च लेपि व्लेपि लेपयति इति भवति, रीप् रेप् रेपि रेपयति इति भवति. तत् कथं भवति इति वक्तव्यं वा भगिनि? अर्प अर्प अर्पि अर्पयोग निच् नकारस्य चुटु इत्यनेन इत् संज्ञा भूत्वा लोपो भवति. टकारस्य हलन्त्यम् इत्यनेन लोपो भवति. तद् अर्प ईकार अवशिष्यते. तर्हि अर्पयोग ईकार अर्पि इति भवति. अधुना शप् आयाति. अर्पियोग शप् योग ति वर्तमाने का वर्तमाने प्रथमपुरुष एकवचनरूपम्. अर्पियोग शप् योग ति शकार लशक तदिते इत्यनेन लोप भवति. पकार हलन्त्यम् इत्यनेन इत्संज्ञा भूत्वा लोपो भवति. अकार एव अवशिष्यते. अधुना अर्पि इत्यस्य अङ्गस्य अर्धधातुक सार्वधातुक इत्यनेन गुणः भवति. अर्पे इति भवति. अयोग अयोगति. तर्हि अर्पयोग अयोगति तत्र यचवायवने ऐ आदेश भवति. अर्पयति इति रूपं सिद्धं. तदैव श्रीप अपि च लेपि प्रक्रिया साम्यम् अस्ति सर्वत्र.
उत्तमं. रू इति धातुः अस्ति, उपरि दत्तम् अस्ति. रू धातोः रूपमेव अर्पि इत्युक्ते रू इति धातुतः आदौ णिच् प्रत्ययं योजयामः. णिच् इत्यस्मात् इकारः आयाति. णिच् प्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः अस्ति चेदपि रू धातुतः णिच् इति आर्धधातुकप्रत्ययस्य योजनेन रू योगः इ इति स्थितिः अस्ति तत्र. सार्वधातुक अर्धधातुकयोः इति सूत्रेण रू इत्यस्य स्थाने अर आयाति. आदौ तत्र गुणकार्यं भवति. रू इत्यस्य स्थाने णिच् प्रत्यये परे गुणकार्यं भूत्वा रुकारस्य स्थाने अर आयाति. अपि च अर्ति ह्रीव्लि क्नुयीक्ष्मायातम् इति सूत्रेण पुक् आगमः भवति इति कृत्वा आदिमम् अत्र रूपम् अर्प अर्प इति दत्तमस्ति. पुनः तत्र णिच् इत्यस्मात् इकारः तत्र अस्ति इति कृत्वा अर्पि इति नूतनधातुः. अन्यानि उदाहरणानि अपि अत्र दत्तानि. तेषु अपि प्रक्रियासाम्यम् अस्ति. ह्रीप् इत्यस्मिन् पुगन्तम् अङ्गम् अस्ति. पकारात् पूर्वं दीर्घ ईकारः अस्ति चेदपि पुगन्तलघुपधस्य च इति सूत्रेण पुगन्तम् अङ्गम् अस्ति इति कृत्वा गुणः भवति. उपधायां ह्रस्व इकारः नास्ति अथवा ह्रस्व इकवर्णः नास्ति चेदपि केवलं पुगन्तम् अङ्गम् इति कारणम् अत्र गुणकार्यं भवितुं. तदर्थम् एतेषु धातुषु पुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भूत्वा ह्रेपि व्लेपि रेपि इति नूतनधातवः णिजन्तधातवः एते धातवः तेभ्यः णिजन्तरूपाणि साधितानि. रेपयति ह्रेपयति व्लेपयति.
एकः प्रश्नः अस्ति. पुगागमः णिच् प्रत्यये परे एव भवति वा अन्यप्रत्यय अस्ति अपि भवति वा महोदय?
पुकागमः णिच् प्रत्यये परे भवति इति पठितवती, किन्तु अन्येषु स्थलेषु भवति वा न वा इति मया न ज्ञातं. तस्मिन् प्रसङ्गे एव अहं पठितवती.
अस्तु, धन्यवादः. अपि णिच् प्रत्यये परे कदा कदा भवति? आकारान्त अस्ति चेत् भवति. अपि रीप् इत्यस्य ईकारान्त अस्ति चेत् अपि भवति. ऋकारस्य अस्ति चेत् अपि भवति. कदा कदा भवति महोदय?
अत्र उपरि पश्यामश्चेत् रू धातोः प्रसङ्गे, ह्री धातोः प्रसङ्गे, व्ली री क्नूयि क्ष्मायि इत्येतेषाम् इत्युक्ते अस्मिन् सूत्रे केचन धातवः स्पष्टतया उक्ताः. अपि च आकारान्तानां प्रसङ्गे अपि. नरेश् महोदय, भवान् पठतु. अलोन्त्यात् पूर्व उपधा उपधासंज्ञा सूत्रं लिखितमस्ति.
अलोन्त्यात् पूर्व उपधा वर्णसमुदायस्य यः अन्तिम वर्णः तस्मात् पूर्ववर्णस्य उपधासंज्ञा भवति. संज्ञासूत्रम् अलः पञ्चम्यन्तम् अन्यन्त्यात् पञ्चम्यन्तम् पूर्वः प्रथमान्तम् उपधा प्रथमान्तम् अनेकपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णम्. अन्त्यात् अलः पूर्व उपधा. अत्र दत्तमस्ति अलोन्त्यात् पूर्व उपधा. अन्तिम वर्णः पूर्ण पूर्व उपधा अस्ति. वर्णसमुदायश्च यः अन्तिम वर्णः तस्मात् पूर्व वर्णस्य उपधा संज्ञा भवति. संज्ञासूत्रम् अत्र अलः पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तं पूर्वप्रथमान्तम् अत्र मूल स्थितिः अस्ति अन्तिम वर्णस्य पूर्वं उपधा अस्ति. सम्पूर्णसूत्रम् अन्त्यात् अलः पूर्व उपधा.
अल् इति कथनेन
सर्वे स्वरः व्यञ्जनः
सर्वे वर्णाः स्वराः व्यञ्जनानि च अलः पञ्चम्यन्तम् अन्त्यात् पञ्चम्यन्तं पूर्वः उपधा इति पदद्वयं प्रथमान्तपदद्वयम् अस्ति. अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् अनुवृत्तेः आवश्यकता नास्ति. उपधा नाम किम् इति अनेन सूत्रेण ज्ञायते.
अत्र पूर्व उपधा इति भवितव्यं किल? पूर्व उपधा इति किमर्थम्? उपधा इति स्त्रीलिङ्गपदमस्ति किल? पूर्व उपधा इति भवितव्यं किल?
अत्र समस्तपदं नास्ति.
समस्तपदं नास्ति, परन्तु पूर्व इति उपधायाः विशेषणं किल? पूर्व इति पदं तस्मात् उपधा इति स्त्रीलिङ्गपदं पूर्व उपधा इति भवितव्यं किल? पूर्वः इति मास्कुलिन् जेण्डर् किमर्थं पूर्व उपधा इति भवितव्यं मम चिन्तनम्.
सन्धिकार्यं किमपि अस्ति किं भगिनि? प्रायः तत्र
वर्णः किल, पूर्वः वर्णः इति संज्ञा, विशेषणविशेष्य भावः नास्ति अत्र.
नास्ति वा?
पूर्वः वर्णः उपधा इति संज्ञा.
ओ, पूर्वः इति वर्णस्य विशेषणं वा? पूर्वः इति वर्णस्य विशेषणं वा?
अलः इत्यस्य इति मन्ये. अलः पूर्वः.
आम् आम्, अलः अलः इत्यस्य पूर्वः
इत्यस्य
अलः इत्यस्य विशेषणं. प्रथमाध्याये बहूनि संज्ञासूत्राणि सन्ति, इत्युक्ते संज्ञाप्रकरणं, संज्ञाप्रकरणस्य अध्ययनेन संज्ञासूत्राणि ज्ञायन्ते इति एकः विषयः. अन्तिम अल्वर्णात् पूर्वं यः वर्णः अस्ति सः उपधासंज्ञकः. अत्र उपधायाः प्रसङ्गः किमर्थमस्ति इति एकवारं परिशीलयामश्चेत्, अत्र चुर् इत्यस्मिन् उपधायाम् उकारः अस्ति, अपि च पठ् धातुं स्वीकुर्मः चेत् पठ् इत्यस्मिन् ठकारात् पूर्वम् अकारः अस्ति, ह्रस्व अकारः. उपधायां ह्रस्व अकारः अस्ति पठ् धातौ, चुर् धातौ उपधायां ह्रस्व उकारः अस्ति. इत्युक्ते उपधायां ह्रस्व उकारः अस्ति चेत् चुरादिगणे कीदृशानि कार्याणि भवन्ति? अन्येषु स्थलेषु उपधायां ह्रस्व इक् वर्णः अस्ति चेत् कानि कानि कार्याणि भवन्ति इति ज्ञातुम् अत्र उपधासंज्ञा तस्मिन् प्रसङ्गे लिखितमस्ति. पुगन्तलघुपधस्य च इत्यस्मिन् सूत्रे अपि लघुपदम् इति वयं पठितवन्तः खलु, तदर्थम् उपधा इत्यस्य अवगमनम् आवश्यकम्. शुभदा भगिनी भवती पठतु, चुरादिगणे किं भवति?
चुरादिगणे पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः. चुर् चोरयति भवति, तुल् तोलयति भवति, घुष् घोषयति भवति, चुद् चोदयति भवति, विल् वेलयति भवति. एतेषु उदाहरणेषु उपधायां लघु इक् अस्ति, लघु उ, लघु इ इति अस्ति. तस्य पुगन्तलघुपदस्य च इति सूत्रेण णिच् इत्यस्य योगे गुणः भवति, अतः चोर तोल घोष चोद वेल इति भवति. तत्पश्चात्
शप् इति इत्यस्य शप् अपि च ति इति योजयित्वा तस्य चोरयति, तोलयति, घोषयति, चोदयति अपि च वेलयति इति भवति. चुरादिगणे धात्वङ्गे सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः न भवति. चुरादिगणे इगन्तधातवः तु सन्ति, परन्तु तत्र इगन्तधातुषु वृद्धिः भवति. सार्वधातुक चुरादिगणे पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति, तत्तु वयं दृष्टवन्तः. परन्तु सार्वधातुकार्धधातुकयोः इति यत् सामान्यं सूत्रमस्ति तस्य प्रसक्तिः अस्ति, परन्तु एतत् न भवति. किमर्थं चेत् इगन्तधातवः सन्ति, परन्तु इगन्तधातुषु वृद्धिः भवति. यदा घृप्रस्रवणे इति चुरादिगणीयधातुः, अत्र घृ इति इगन्तधातुः अस्ति, तत्र रु इति इगन्त अस्ति, घ योगः रु इति अस्ति, रु इति इगन्तधातु अन्ते अस्ति इति कृत्वा घृ इति इगन्तधातुः अस्ति. अपि च तद्धातु चुरादिगणीय अस्ति. तत्र घृ योगः णिच् भवति चेत् अचोणिति इति सूत्रेण वृद्धि आदेशः भवति, न तु गुणः. तत् णित् प्रत्ययः णिच् इति णित् प्रत्ययः अस्ति इति कारणेन, आर्धधातुकप्रत्ययः अस्ति इति कारणेन तत्र गुणः न भवति, तत्र वृद्धिः भवति. अतः घृ इत्यस्य वृद्धिः भूत्वा घार् इति भवति, योगः णिच् इत्यस्य इ इति आयाति, घार् योगः इ घारि, तत्पश्चात् घारि योगः शप् योगः ति, तत्र एचो पुनः एकवारं शप् इति इत्यस्य गुणः भूत्वा घारे इति भूत्वा एचोयवायावः इत्यस्य सूत्रेण घारय इति भवति, घारयति इति अन्तिमरूपं सिद्ध्यति.
उत्तमम्, तदेव भगिनि. प्रथमं वाक्यं परिशीलयामश्चेत् चुरादिगणे णिच् प्रत्ययः विधीयते आदौ, चुरादिगणे स्वार्थे अपि णिच् प्रत्ययः विधीयते. तत्रैकं विशिष्टं सूत्रमस्ति, सत्यापपाशवीणातूल दीर्घं सूत्रमस्ति, चुरादिभ्योणिच् चुरादिभ्योणिच् चुरादिभ्यः धातुभ्यः णिच् प्रत्ययः विधीयते इति तत्र सूत्रं वदति. तेन सूत्रेण चुरादिगणे स्वार्थे अपि णिच् विधीयते. णिच् प्रत्ययः आर्धधातुकप्रत्ययः, सार्वधातुकः नास्ति. पुगन्तलघुपथस्य च इत्यस्मिन् सूत्रे सार्वधातुकार्धधातुकयोः इत्यस्य अनुवृत्तिः अस्ति इति कारणतः तत्र णिच् प्रत्यये परे इत्युक्ते आर्धधातुकप्रत्यये परे अपि चुर् इत्यस्मिन् अत्र उपधायां लघु इक्वर्णः अस्ति इति कृत्वा पुगन्तलघुपथस्य च इति सूत्रेण. किन्तु द्वितीयं वाक्यं परिशीलयामश्चेत् चुरादिगणे सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति. अत्र पदद्वयम् उक्तमस्ति, प्रसक्तिः प्राप्तिः इत्युक्ते तस्य प्रसङ्गः अस्ति, किन्तु सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्राप्तिः न भवति. सार्वधातुकार्धधातुकयोः इति सूत्रम् औत्सर्गिकसूत्रं, सामान्यसूत्रम्. इदं सूत्रं सामान्यसूत्रं, सामान्यसूत्रं प्रबाध्य अपवादत्वेन अचोयणिति इति सूत्रेण चुरादिगणीयधातुषु इगन्तधातुषु वृद्धिः भवति इत्युक्ते अपवादबलेन अपवादत्वेन अचोयणिति इति सूत्रेण वृद्धिकार्यं भवति. बलाबलचिन्तनम् इति वदामः इत्युक्ते यत्र कुत्रापि सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् तदा कस्य सूत्रस्य बलम् अधिकमस्ति, कस्य बलं न्यूनमस्ति इति चिन्तनीयं, तदेव बलाबलचिन्तनम्. अत्र सार्वधातुकार्धधातुकयोः अपि च अचोयिणिति इति सूत्रद्वयम् एकत्र तयोः सूत्रयोः प्रसक्तिः अस्ति चेदपि सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाध्य अचोयिणिति इति सूत्रस्य कार्यं भवति अपवादबलेन. अचोयिणिति कार्यं भवति चेत् इगन्तधातुषु वृद्धिः भवति. तदवगन्तुमेव घृ इति धातोः उदाहरणं दत्तमस्ति. णिच् प्रत्ययः आर्धधातुकप्रत्ययः अपि च णित् प्रत्ययः अस्ति. णित् इत्युक्ते णिच् इत्यस्मिन् णकारः इति संज्ञकः चुटु इत्यनेन, तदर्थमेव अचोयिणिति इति सूत्रम्, अचः इति एकं पदम् अस्ति. अचः इत्युक्ते अजन्तधातुषु, अजन्तधातुषु णिति परे इणिति परे इत्युक्ते अत्र णित् प्रत्ययः, घञ् इति णित् प्रत्ययः, अपि च णिच् प्रत्ययः, णिच् प्रत्यये णकारः इति संज्ञकवर्णः अस्ति, घञ् प्रत्यये चवर्गीयव्यञ्जनम् इति संज्ञकवर्णः. तत्र घृ अपि च णिच् इत्यत्र सार्वधातुकार्धधातुकयोः अपि च अचोयिणिति इत्यनयोः प्रसक्तिः अस्ति चेदपि प्राप्तिः कस्य भवति इत्युक्ते अचोयिणिति इति सूत्रस्य प्राप्तिः एव भवति. घृ इत्यस्मिन् अन्ते ऋकारः अस्ति, सः ऋकारः इक् प्रत्यहारस्थवर्णः इत्युक्ते घृ इति धातुः इगन्तधातुः, तत्र अन्ते ऋकारः अस्ति, ऋकारः इक् प्रत्यहारस्थवर्णः. अत्र ऋकारस्य स्थाने आकारः आयाति, वृद्धिसंज्ञकवर्णः. वृद्धिसंज्ञकवर्णाः के इति परिशीलयामश्चेत् वृद्धिरादैच् इति एकं सूत्रमस्ति. वृद्धिः इत्युक्ते आत् ऐच्, आत् इति कथनेन दीर्घ आकारः अस्ति इति कृत्वा अत्र आदौ दीर्घ आकारः आयाति, पुनः सः आकारः अण्प्रत्याहारस्थवर्णः अस्ति इति कृत्वा वुरण्परः इति सूत्रेण सः सदा रपरः भवति इति कृत्वा आर् इति आदेशः भवति. तत्र घृ इत्यस्य रूपं घार् भवति, वृद्धिः भूत्वा घार् योगः इ घारि इति नूतनधातुः. तदनन्तरं पुनः प्रक्रिया भूत्वा घारयति इति रूपं सिध्यति. ज्ञातव्यः अंशः कः इत्युक्ते सार्वधातुकार्धधातुकयोः इत्यस्य कार्यम् अभूत्वा अचोयिणिति इति अपवादसूत्रेण वृद्धिकार्यं भवति चुरादिगणीय इगन्तधातुषु. अपि च अत्र त्रीणि वाक्यानि इतोपि सन्ति, तानि एकवारं परिशील्य समापयामः.
एकसन्देहः उगन्तलघुपदस्य च इति सूत्रस्य अपि प्रसक्तिः नास्ति वा यः अत्र गृ इति निच् प्रत्यये परे
नास्ति?
एकमेव सूत्रम् अत्र प्रसक्ति किल, अचो निहितं.
घृ इति धातुः कीदृशः इगन्तधातुः इत्युक्ते अस्य धातोः अन्ते इक् प्रत्यहारस्थवर्णः अस्ति इति कृत्वा केवलं सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः एव अस्ति. पुगन्तम् अङ्गं नास्ति, अपि च लघुपदम् अङ्गमपि नास्ति, अत्र केवलं धातुः घृ. भवानेव पठतु महोदय, अत्र अग्रे किं लिखितमस्ति
प्रश्नः. क्षम्यतां,
भवत्या
अद्य एव घञ् प्रत्ययस्य विषये किमपि उक्तं, तत् न अवगतम्?
पच् धातुतः पाकः इति पदं सिद्ध्यति. पच् धातुतः घञ् इति प्रत्ययं योजयामः. घञ् इत्यस्मिन् प्रत्यये अन्ते यः ञकारः इत्युक्ते चवर्गीय अन्तिमे व्यञ्जनं, तत् व्यञ्जनं हलन्तिम् इति सूत्रेण अपगच्छति. घञ् प्रत्ययः णित् प्रत्ययः अपि वक्तुं शक्यते, इत्युक्ते अन्यनाम णिच् प्रत्ययः णित् प्रत्ययः इत्युक्ते णिच् प्रत्यये णकारः इति संज्ञकवर्णः अस्ति इति कारणतः तस्य नाम णित्. घञ् प्रत्यये चवर्गीय अन्तिमव्यञ्जनम् इति संज्ञकवर्णः भूत्वा हलन्तिम् इत्यनेन इति संज्ञकवर्णः भूत्वा अपगच्छति. घञ् इत्यस्मिन् घकारः अपि अपगच्छति, तत्र लशक्वतद्धिते इति सूत्रेण घकारः अपगच्छति. अन्ते स्थितस्य चवर्गीयव्यञ्जनस्य इति संज्ञा अपि हलन्त्यम् इति सूत्रेण भवति इति कृत्वा घञ् प्रत्यये अकारः तिष्ठति. घञ् प्रत्ययः णित् प्रत्ययः, तस्मिन् प्रसङ्गे अपि अनेन सूत्रेण कार्यं भवति, किन्तु अत्र णिच् उदाहरणं दत्तमस्ति. महोदय भवान् पठतु अग्रे.
एवमेव प्रेरणार्थे णिच् प्रत्यये परे नी योगे णिच् वृद्धि आदेशः न तु गुणः. नै नै योगे इ सन्धिः, सन्धिः आय् आय् इति नै इति नाय् भवति आदेश, आय् आदेशः नाय् योगे इ नायि इति नायि योगे शप् योगे ति नाययति. अत्र हलन्त्यम् इति कारणेन पकारस्य लोपः भवति, पकारस्य इत्संज्ञा भूत्वा लोपः भवति, लशकु अतद्दिते इति कारणेन शकारस्य अपि इत्संज्ञा भूत्वा लोपः भवति, नायि 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 योगे अ योगे पि इति नायि इति नायि इति वृद्धि आदेशः नायि योगे शब् इति तु नायति इति सिद्ध्यति.
पुनस्मरणार्थं वदामि, नी धातोः साधारणलट्लकाररूपं नयति, नी धातोः साधारणलट्रूपं नयति अस्ति. तत्र नी धातुः इगन्तधातुः, इगन्तधातुः अस्ति इति कृत्वा अन्ते इकप्रत्याहारस्थवर्णः अस्ति इति कृत्वा नियोगः शप् योगः तिप् इति कथनेन तत्र नयति इति रूपं सिद्ध्यति. इत्युक्ते नी इत्यस्य अन्ते दीर्घे ईकारः अस्ति, इत्युक्ते इक् प्रत्याहारस्थवर्णः अस्ति. तस्मात् परं शप् अस्ति चेत् तत्र इगन्ताङ्गस्य गुणः भूत्वा नी ने भवति, तदा यचोयवायावः इति सूत्रेण अयादेशः भूत्वा नयति इति रूपं भवति. इत्युक्ते नी धातोः लट्लकारप्रसङ्गे केवलं गुणकार्यं भवति, किन्तु अत्र णिच् प्रत्ययः परः अस्ति. णिच् प्रत्ययः परः अस्ति इति कृत्वा अचोयणिति इति सूत्रेण गुणकार्यं प्रबाध्य वृद्ध्यादेशः भवति इति कृत्वा ईकारस्य स्थाने ऐकारादेशः, इत्युक्ते तदर्थं नयि इति रूपं सिद्ध्यति. णिच् इत्यस्मात् अणकारचकारयोः अनुबन्धलोपानन्तरम् इकारः शिष्यते. तदनन्तरं यचोयवायावः इति सूत्रेण ऐकार इकारयोः मध्ये सन्धिकार्यं भवति, किन्तु ऐकारस्य स्थाने एव आय् आदेशः भवति इति कृत्वा नकारः योगः आय् योगः ई, तत्र वर्णमेलनेन नायि नायि इति नूतनधातुः, नायि नूतनधातुतः नाययति. अग्रे वदतु.
भूयोगे णिच् वृद्धि आदेशः भवति, न तु गुणः. भौ 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 इति भवति, भौ योगे इ सन्धिः भूत्वा आव् आदेशः भवति, भाव् योगे इ भावि इति नूतनधातुः भवति, नूतनवृत्तु. भावि योगे शप् शप् योगे ति भावयति इति रूपं सिद्ध्यति. भावि इति शप् शप् प्रत्ययः इति पकार शकारयोः लोप इत्संज्ञा भूत्वा लोपः भवति, अ इति इत्येव अवशिष्यते विकरणप्रत्ययः. भावि इति भा उर्ग ऐ भावै भाव योगे ऐ योगे अ योगे ति भावयति इति रूपं सिद्ध्यति.
उत्तमं. भूधातुः अपि इगन्तधातुः एव. अत्र भूधातोः अन्ते दीर्घ ऊकारः अस्ति. भू इति इगन्तधातुः णिच् प्रत्ययं योजयामः. णिच् नास्ति चेत् केवलं साधारणलट्लकाररूपं साधयितुम् इच्छामश्चेत् भूयोगः शप् योगः तिप् तदा किं भवति?
भो भवति गुणकार्य गुणकार्यप्रसक्तिकारणेन भो भूत्वा भव् इति भवति, भो भव् सो भवति इति वर्णमेलनेन भवति इति रूपं सिद्ध्यति.
उत्तमम्. साधारणलट् रूपं भवति, तत्र गुणादेशः भवति, इगन्तधातुः अस्ति इति कृत्वा सार्वधातुकार्धधातुकयोः सूत्रेण गुणः भवति, किन्तु णिच् प्रत्यये परे तत् सूत्रं सार्वधातुकार्धधातुक वृद्धिः भूत्वा अचोयणिति इति
सूत्रेण वृद्धिः भूत्वा भावयति इति रूपं सिद्ध्यति.
उत्तमम्. अचोयणिति सूत्रम् अवगन्तुमेव अत्र त्रीणि उदाहरणानि दत्तानि. नी इति धातोः अन्ते दीर्घ ईकारः अस्ति, भू धातोः अन्ते दीर्घ ऊकारः अस्ति, अपि च क्रू इत्यस्मिन् ऋकारः अस्ति. ऋकारस्य उदाहरणं पठतु.
कृ योगेणिच् वृद्धि आदेशः न तु गुणः. कार् योगे इ इति वृद्धि आदेशः कृत्वा कारि इति रूपं नूतनरूपं सिद्ध्यति. कारि योगे शप् योगेति कारयति इति कारि योगे शप् इति शकारपकारयोः इत्संज्ञा भूत्वा लोपः भवति. कारि कार् इत्यस्य एषु अयवायामः इति कारणेन कार् योगे आय् आय् इति रूपं सिद्ध्यति. कार् सोरि कार् ऐ ओके ऐ इति रूपं सिद्ध्यति. कारि कार् योगे ऐ योगे अ योगे इति वर्णमेलनेन कारयति इति अन्तिमरूपं सिद्ध्यति.
उत्तमं, साधु उक्तवान् महोदय. क्रू धातोः अन्ते ऋकारः अस्ति, इक् वर्णः ऋकारः, किन्तु तस्य लट्लकाररूपं करोति. तत्र भिन्नकार्याणि सन्ति. करोति इति पदसाधनसमये भिन्नकार्याणि भवन्ति, किन्तु अत्र णिच् अस्ति इति कारणतः क्रू धातुतः अर्धधातुकप्रत्ययः णिच् प्रत्ययः अस्ति इति कृत्वा गुणकार्यं प्रबाध्य अचोयिणिति इति सूत्रेण णिच् प्रत्ययः णित् प्रत्ययः अस्ति इति कृत्वा अचोयिणिति इति सूत्रेण वृद्ध्यादेशः भवति. अत्र ऊर्ध्वसंज्ञकवर्णः, तत्र ऋकारस्य स्थाने वृद्ध्यादेशः भवति. इत्युक्ते वृद्धिसंज्ञकवर्णादेशः भवति. वृद्धिसंज्ञकवर्णः कः इत्युक्ते आकारः. तपरस्तत्कालस्य इति सूत्रेण आत् इति कथनेन दीर्घ आकारः. यदा कदापि तादृशदीर्घ आकारः अथवा अण् प्रत्याहारस्थवर्णः आदेशरूपेण ऋकारस्य स्थाने आयाति चेत् सः आकारः सदा रपरः भवति. वुरण् रपरः इति सूत्रेण सः आकारः रपरः भवति चेत् आर् भवति. ककारः योगः आर् खार् भवति. तत्पश्चात् णिच् इत्यस्मात् इ अत्र उपस्थितः. कार्योगः इ कारि कारि नूतनधातुः. कारि इत्यस्मिन् अन्ते इकारः अस्ति. इदानीम् अत्र शप् इति विकरणप्रत्ययः सार्वधातुकप्रत्ययः अस्ति. शप् षित् अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः परः अस्ति इति कृत्वा इकारस्य गुणः भूत्वा कारे कारे योगः आ इति स्थितिः अस्ति. तत्र पुनः यचोयवायावः इति सूत्रेण अयादेशः भूत्वा कारय इति अङ्गं सिद्ध्यति. अन्ते ति योजयामः, तेन कारयति इति णिजन्तरूपं सिद्ध्यति. अन्तिमं वाक्यं पठित्वा समापयतु.
तिङन्तप्रकरणे गुणविधायकसूत्रद्वयमस्ति. सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति इदानीं सूत्रद्वयस्य अपि परिचयः जातः. तिङन्त गुणविधायकसूत्रं द्वयम् अस्ति. इद् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्रद्वयम् अस्ति. इदानीं सूत्रद्वयस्य अपि परिचयः जातः.
उत्तमम्. अनेन सूत्रद्वयेन गुणकार्यं भवति. भुआदिगणस्य उदाहरणानि स्वीकृत्य वयं परिशीलितवन्तः. अत्र गुणचिन्तनं प्रवर्तमानमस्ति. भुआदिगणे गुणः अनेन सूत्रद्वयेन भवति, किन्तु तुदादिगणे गुणः न भवति. तुदादिभ्यः शः इति एकं सूत्रमस्ति. श इति प्रत्ययः षित् अस्ति, किन्तु अपित् अपित् प्रत्ययः अस्ति इति कारणतः, पित्वं नास्ति इति कारणतः तुदादिगणे गुणः न भवति इति. उत्तमम्. अकारः नास्ति इति कारणतः गुणः न भवति इति विषयः आगामिसप्ताहे आरप्स्यते. तुदादिगणे गुणः किमर्थं न भवति तस्मिन् प्रसङ्गे किञ्चित् चिन्तनं करिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादाः.